सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ।
धन्यवादः भगिनी। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत्र कर्मणि प्रयोगः, भावे प्रयोगः, तत्र लोट्लकार लोट्लकारे इति, तत्र लोट्लकाररूपाणि कथं भवति इति अस्माकं मूलविषयः कर्मणि भावे प्रयोगे इति। तत्र पाठः अस्तु तत्र विंशः पाठः, तत्र भीष्म एवाभिरक्ष्यताम् इति। तत्र पाठस्य आरम्भः कुत्र भवति, पुटसङ्ख्या अस्ति 134, किन्तु गतवर्गे वयं तत्र प्रायशः 138-139 मध्ये आसम् इति मन्ये। अतः तत्र अस्म तत्र प्रश्नत्रयम् आसीत्, अतः तत्र तत्र पश्यामः। तत्र एकः प्रश्नः अस्ति तत्र एकत्रिंशत्तमे वाक्ये पुटसङ्ख्या अस्ति 139, तत्र स्मरन्ति खलु तत्र यूयं विश्वमार्यं कुरुध्वम् इति, पुटसङ्ख्या अस्ति 139। हा, तत्र उत्तरं तु तत्र उत्तरं सुलभमेव आसीत्। वयं तत्र वर्गे एतस् वाक्यस्य अर्थः कः इति चिन्तितवन्तः, किन्तु तत्र यूयं विश्वम् आर्यं कुरुध्वम् इति नाम तत्र कुरुध्वम् इति क्रियापदं, यूयम् इति कर्तृपदम् अस्ति खलु। इदानीं तत्र कर्मपदम् अस्ति वा अस्मिन् वाक्ये, नरेश महोदय?
कर्मपदं विश्वमार्यं,
हा विश्वमार्यम् इति अस्ति। तत्र विश्वमार्यं नाम विश्वं कुरुध्वं, यूयं विश्वं कुरुध्वं, किं कुरुध्वं विश्वम्, आर्यं कुरुध्वं नाम, आर्यं नाम तत्र तस्य उन्नतिः, तत्र उत्तमा स्थितिः तस्य विश्वस्य, तादृशी स्थितिः विश्वे भवतु, तादृशं विश्वं भवतु, तत्र तादृशं विश्वं करोतु इति। अतः तत्र कुरुध्वं विश्वम् आर्यं कुरुध्वम्, आर्यं नाम उत्तमश्रेणी, श्रेष्ठा, श्रेष्ठम् इति। अतः तत्र विश्वम् आर्यम्, आर्यम् अस्ति विशेषणं विश्वं पदस्य, तावदेव आसीत्। अस्तु, सः प्रथमप्रश्नः गतवर्गे आसीत्। अपि द्वितीयप्रश्नः तत्र आसीत्, तत्र तस्य तस्मात् पूर्वं वाक्यं यत् आसीत् तत् भवति भ्रातृन् उपदिशतु इति। तत्र तस्य कर्मणि रूपं कथं भवति, तत्र शोभा भगिनी वदति वा?
आं महोदय, तत्र उपदिशतु इति क्रियापदं भवति इति कर्तृपदम् अस्ति चेत् भवत्या उपदिश्यताम् इति भवति, भवत्या
न भवत्या इति समीचीनम्। इदानीं तत्र भ्रातृन् इति अस्ति, भ्रातृन् किम् अस्ति?
हा, क्षम्यतां, भ्रातॄन् इति द्वितीया बहुवचने, तत् अतः तत्र, हा तत्र भ्राता, भ्रातारौ, भ्रातरो, भ्रातरः इति, भवत्या भ्रातरः उपदिश्यन्ताम्,
हा इति भवति। किन्तु तत्र प्रश्नः कः आसीत्, तत्र वयम् अष्टाध्यायी मध्ये दृष्टवन्तः तत्र दिश् धातोः रूपाणि तत्र कर्मणि प्रयोगे तत्र पिष्यताम् इति आसीत् खलु?
आम् आम्।
हा, किन्तु अहं पृष्टवान् दिश्यताम् इति एव समीचीनम्। अतः तत्र किमर्थं तत्र तत्र अष्टाध्यायी मध्ये दोषः अस्ति इति न जानीमः,
दोषः अस्ति वा?
हा, किन्तु तत्र वयं जानीमः तत्र अष्टाध्यायी मध्ये यत् अस्ति तत् यन्त्रेण कृतं खलु भगिनि?
आम् महोदय।
केवलं तत्र प्रोग्राम् साफ्ट्वेर् स्वीकृत्य अतः तत्र प्रक्रिया मध्ये तत्र कथं दोषः भवति इति न जानीमः. किन्तु किन्तु तत्र सर्वाणि पुटानि तत्र कोऽपि तत्र दृष्ट्वा तत्र समी तत् सम्यक् अस्ति इति प्रायशः न कोऽपि दृष्टवन्तः दृष्टवान् खलु.
यतोहि तत्र यथा यथा सूचनानि आगच्छन्ति तथा तथा नीलेश महोदय समीकरोति.
सत्यं भगिनि,
अहं सूचयामि न महोदय सूचयामि.
अस्तु भगिनि, समीचीनम्.
किन्तु पूर्वं पूर्वं सूचितवती अनेकवारं, सः समीकरोति महोदय.
समीचीनं भगिनि, अस्तु. अतः तत्र लाभः एव अस्तु. अतः तत्र उपदिशतु इति उपदिश्यताम् इति एव उपदिश्यताम्. किन्तु अत्र भ्रातरः अस्ति इति कृत्वा बहुवचने उपदिश्यन्ताम् इति. अस्तु, सत् समीचीनं. किन्तु एकवारं पृष्ट्वा यदि वदामि भगिनि, अहं मम मनसि अपि विश्वासः अस्ति एतत् सम्यक् अस्ति इति. नो चेत् तत्र अष्टाध्यायी मध्ये तत्र साधारणतया तत् सम्यक् एव भवति खलु. अतः अस्माकं विश्वासः न भवति, अस्तु मम मनसि एतदस्ति किन्तु अष्टाध्यायी मध्ये एतद् रूपम् अस्ति, प्रायशः तद् सम्यक् अस्ति, यत् मम मनसि अस्ति तत् प्रायशः न सम्यक् अस्ति इति एव चिन्तयामः.
आं महोदय, सत्यं सत्यं.
किन्तु इदानीं वक्तुं विश्वासेन वक्तुं शक्नुमः तत्र उपदिश्यन्ताम् इति समीचीनम् अस्ति. अपि अन्य अन्तिमप्रश्नः आसीत्,
अन्यप्रश्नः अस्ति.
वदतु भगिनि.
अष्टविंशति शत अष्टत्रिंशदधिकशतं पुटे चतुर्थबिन्दुः.
समीचीनं भगिनि, तदेव तद्वाक्यमेव इदानीम् अहं तस्य विषये एव वक्तुम् इष्टवान्. समीचीनं भगिनि, अत्र तत्र अस्माकं धातुः कः इति तत्र तत्र तस्य ज्ञानं नासीत् तत्र. किन्तु धातुः अस्ति ईह धातुः, ईह. अतः तत्र समीहते इति तत्र क्रियापदं, साक्षात् क्रियापदं
संयोगः
ईह. किं भगिनि,
ईह धातु वा?
इह धातुः तत्र
कुत्र अस्ति
किं महोदय,
कुत्र अस्ति?
एतदस्ति चतुर्थवाक्यं महोदय, 138 मध्ये.
चतुर्थवाक्यं,
चतुर्थवाक्यम्. अतः इह इति धातुः तत्र ईहते, ईहेते, ईहन्ते इति तत्र भुवादिगणे एव अस्ति. तत्र अष्टाध्यायी मध्ये तत्र अस्ति. एकनिमिषः अहं तत्र
महोदय तत्र दृष्टवन्तः, किन्तु ईहताम् इति नास्ति, ईह्यताम् इति अस्ति. भावकर्मणोः लोट्लकारे ईह्यताम् इति अस्ति. ओ अस्तु, तत्र तु तदेव ईहताम् न तत्र कर्तरि ईहतामेव भवति किल,
कर्तरि ईहतामेव भवति,
ईहतामेव.
किन्तु भावे कर्मण्योः कर्मणोः ईह्यताम्
ईह्यताम्. आम् सम्यक् महोदय,
समीचीनमेव. अपि तत्र उपसर्गार्थः अपि तत्र दत्तमस्ति. तत्र सं योग ईः इत्युक्ते इच्छाकर्ण चाह्न. अतः तत् समीचीनं भवति. तत्र वाक्यं पश्यतां, भवान् कामभोगान् न समीहताम्. नाम कामभोगान् न इच्छतु भवान्, इच्छाकर्ण चाह्न.
ओके अस्तु महोदय,
एषः एव अर्थः अस्ति समीहते इति पदस्य.
परिवर्तनं चेत् भवतः कामभोगाः न समीह्यताम्.
समीह्यन्ताम् समीह्यन्ताम् यतोहि कर्मपदं बहुवचने अस्ति समीह्यन्ताम् समीचीनं वा भगिनि इदानीं
सूर्यकुमारी
भगिनि समीह्यन्ताम् समीह्यन्ताम् इति अस्तु तर्हि अतः तत्र प्रश्नाः ये आसन् गतवर्गे तेषाम् उत्तरमपि
एकवारं चतुर्थवाक्यं भवान् कामभोगान् न समीहताम् कृपया विवृणोतु महोदय
हा तत्र समीहतां नाम तत्र समीहते नाम इच्छति इति अर्थः महोदय अतः हा इदानीं तत्र भवान् कामभोगान् न समीहता न इच्छतु तत्र कामभोगान् न इच्छतु तस्य नाम इच्छा मास्तु कामभोगानां विषये इच्छा मास्तु भवतः इति इदानीं कर्मणि प्रयोगे किं भवति भवान् इति कर्तृपदस्य तृतीया विभक्त्यन्तं भवति भवता कामभोगान् इति कर्मपदस्य प्रथमाविभक्त्यन्तं भवति अतः कामभोगाः इति भवति पुल्लिङ्गपदम् अपि तत्र न तिष्ठति तदनन्तरं समीहतामिति स्थाने समीहते इति आत्मनेपदी धातु समीहते इदानीं तत्र तस्य कर्मणि अथवा लोट् कर्मणि अथवा कर्मणि प्रयोगे तत्र समीह्यते इति भवति लोट् लकारे समीह्यताम् इति एकवचने किन्तु कर्मपदम् इदानीं कामभोगाः अस्ति इति कृत्वा समीह्यन्ताम् इति भवति अतः पूर्णवाक्यस्य कर्मणि रूपं किं भवति भवता कामभोगाः न समीह्यन्ताम् इति भवति रघुवृन्दस्वामी समीचीनं
वा आं महोदय समीहते समीहन्तां वा महोदय
तत्र समीहते इति कर्तृ प्रयोगे तत्र समीह्यते हकारस्य अनन्तरं यकारः कर्मणि प्रयोगे
समीह्यते
समीह्यते इति लट् लकारे लट् लकारे समीह्यते
नेपदि बहुवचनरूपं
समीह्यन्ते इति लट्लकारे बहुवचने इदानीं लोट्लकार बहुवचनम् आवश्यकम् इति कृत्वा समीह्यन्ताम् इति
महोदय लट्लकारे समीहते
समीहते तत्र यकारः नास्ति चेत् कर्त्री प्रयोगः कर्मणि प्रयोगः चेत् समीह्यते
समीह्यते
सत्यं खलु
आम् आं महोदय
अस्तु तर्हि अतः तत्र अहम् इदानीं तत्र कुत्र स्मः इत्युक्ते तत्र प्रायशः तत्र पुटसङ्ख्या 139 तृतीय अभ्यासः करणीयः इति मन्ये खलु
पञ्चमी अपि
धन्यवादः
तृतीय क्षम्यतां पञ्चम अभ्यासः करणीयः तृतीयः चतुर्थः कृतवन्तः
पञ्चम कृतवन्तः किल महोदय
प्रथमे दिने कृतवन्तः परन्तु
अस्तु
पूर्वस्मिन् वर्गे न कृतवन्तः वा
अस्तु किन्तु कृतवन्तः अस्तु
प्रथमदिने
अस्तु अतः इदानीं अस्माकम् इच्छा का तत्र सप्तम
पुनः
पुनः पुनरेकवारं कुर्मः
महोदय
एतस्य अध्यायस्य तु पुनः स्मरणं भवति चेत् समीचीनम्
अस्तु तर्हि अस्तु अस्तु चिन्ता मास्तु
अग्रे न गच्छामः ततः तत्र एव तिष्ठामः समीचीनं वा महोदय
समीचीनमेव भगिनि हा चिन्ता मास्तु अस्तु तर्हि अतः तत्र पुनः विंशः अध्यायः सः एव भवतु अस्तु तर्हि आरम्भं कुर्मः अतः तत्र पुनरेव एकवारं तत्र एकवारं पठित्वा तदनन्तरं पङ्क्तिशः पश्यामः वा, तत्र पाठस्य मूलपाठस्य परिशीलनं कथं कुर्मः एकवारं सर्वं
नास्ति एकवारं?
अस्तु महोदय, अतः तत्र रघुवीरन् स्वामी भवान् एव तत्र आरम्भं करोतु तर्हि. तत्र विंशः पाठः, भीष्मः एवाभि रक्ष्यताम् इति 134 मध्ये महोदय.
दुर्योधनः, आचार्य प्रणामः, कृपया उत्थीयताम्, शीघ्रं समुत्थीयताम्, सूर्योदयः समासन्. द्रोणः, तत्स भवता सावधानेन भूयताम्, त्वरया किमपि न क्रियताम्. दुर्योधन, गुरुवर्य कथं मया सावधानेन भूयताम्? आतङ्कवता मया किमपि क्रियताम् एव खलु? द्रोणः, वत्स जानामि भवतः परिस्थितिः, वत्सेन दुःशासनेन अपि सन्निहितेन भूयतां खलु? दुर्योधन
महोदय, एषः बहु शनैः अस्ति.
साक्षात् वदामि, प्रायः इण्टर्नेट् मध्ये क्लेशः.
अस्तु महोदय,
इदानीं समीचीनं वा महोदय? किञ्चित्
इदानीं समीचीनम्, उच्चैः इदानीं श्रूयते इति मन्ये महोदय.
वत्स जानामि भवतः परिस्थितिं, वत्सेन दुःशासनेन अपि सन्निहितेन भूयतां खलु? दुर्योधनः, एषः वत्सः दुःशासनः उपस्थितः एव अस्ति. दुःशासनः, आचार्य वन्दे दुर्योधनः, आदिश्यताम्, अनन्तरं किं क्रियताम् इति. द्रोणः, श्रूयताम्, प्रथमं सर्वसैन्याधिपः सर्वसेनासंरक्षकः भीष्मपितामहः प्रबोध्यताम्. दुर्योधनः, अस्तु, तत्र भवतां स्नानानुष्ठानादिकं शीघ्रं समाप्यताम्, तत्र भवतः साहाय्यार्थं दुःशासनेन अत्र एव स्थीयताम्, अथ भवता अत्रैव भूयताम्. अनुष्ठानानन्तरम् आचार्यः रणक्षेत्रम् आनीयताम्
इति. समीचीनं महोदय, धन्यवादः. इदानीम् अग्रे तत्र नरेश् महोदय अग्रे पठति वा?
आं महोदय. दुःशासनः, अस्तु. द्रोणः, वत्स, ततः पूर्वं भवता गत्वा कर्णः उच्यतां मम पूर्वसूचनानुसारं व्यूहः च्यताम् इति. अश्वाः, गजाः, रथाः, पदातयः, सर्वे सैनिकाः च यथास्थानं स्थाप्यन्ताम् इति. अहम् अनन्तरं तत्रैव दृश्यै इति. यदि अपेक्ष्यते भवान् एव स्वयं सहायकत्वेन स्वीक्रियताम् इति च. दुर्योधनः, अस्तु इति गतः. सर्वे भीष्मः, द्रोणः, कर्णः, कृपः, दुर्योधनः, दुःशासनश्च रणाङ्गने स्थिताः. कर्णः, आचार्य प्रणमामि. द्रोणः, वत्स यशो समेध्यताम्. भीष्मः, आचार्य ममपि एष नमस्कारः. द्रोणः, पितामह, मया एव ननु भवान् अभिवाद्यताम्. भीष्मः मया एव अभिवाद्यताम् अथवा आवाभ्याम् आवाम् अन्योन्यम् अभिवन्द्यावहै।
हा, तावत् पर्यन्तं महोदय, धन्यवादः। अस्तु, अग्रेषु भगिनि।
अभिवन्द्यावहै द्रोणः, अस्तु आवाभ्यां परस्परं हस्ताः गृह्यन्ताम्। दुर्योधनः, आचार्य आगम्यताम् अत्र, प्रियमित्रेण करणेन भवतः सूचनाम् अनुसृत्य व्यूहः रचितः, इदानीं वीक्ष्यताम्। कर्णः, महाशय रथाः यत्र स्थाप्यन्ताम् इति सूचिताः तत्र स्थापिताः, इमे गजाः इमे अश्वाः एते पदातयः च अवलोक्यन्ताम्। द्रोणः, अस्तु व्यूहपत्रं पठ्यताम्, मम उत्तरीयं किञ्चित् उन्नीयताम्। दुर्योधनः, आचार्य तव धीमता शिष्येण दृष्टद्युम्नेन व्यूढा चमूः दृश्यताम्, अत्र महेश्वासाः शूराः भीमार्जुनसमाः सन्ति। कर्णः, सखे परेषां विषये चिन्ता त्यजतां भवता, अस्माकं जनाः नायकाः गण्यन्ताम्। पठामि वा अग्रे महोदय?
तत्र प्रायश भगिनी तत्र त्यक्तजीविताः तावत्पर्यन्तम्।
अस्तु महोदय। दुर्योधनः, द्विजोत्तम मम सैन्यस्य नायकाः एते। द्रोणः, अस्तु श्राव्यन्ताम्। दुर्योधनः, भवान् भीष्मः कृपः अश्वत्थामा विकर्णः भूरिश्रवाः एते कर्णादयः, अन्ये अपि मदर्थे त्यक्तजीविताः।
तावत् पर्यन्तं धन्यवादः भगिनि। अग्रे सूर्यकुमारी भगिनि।
महोदय, भीष्मः प्रतिहतम् अमङ्गलं जीवितानि न त्यज्यन्ताम्। दुर्योधन, आचार्य अनेन भीष्माभिरक्षितेन अस्माकं बलेन पर्याप्तेन न पूयते, तेन भीमाभिरक्षितेन पाण्डवानां सैन्येन पर्याप्तेन भूयते इति मन्ये। भीष्मः वच, सातङ्कहृदयेन भवता अवाच्यम् उच्यते। दुर्योधनः, आचार्य एतेन वृद्धेन पितामहेन किमपि चिन्तितां नाम, भवद्भिः सर्वैः यथाभाकं यथास्थानम् अवस्थितैः भूयताम्। द्रोणः वच, भीष्मस्य रक्षणम् एव अस्माकं मुख्यम्। दुर्योधनः, अस्तु अयं भीष्मः एव सर्वैः अभिरक्षिताम्। भीष्मः वच, मा भीयताम् अहं खलु भीष्मः नाम्ना क्रियया च दृश्यतां श्रूयतां च हा 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 शङ्खं धमति। सर्वे भीष्मः अभिरक्षताम् भीष्मः अभिरक्षताम् भीष्मेन जीयताम्
इति समीचीनं भगिनि, धन्यवादः। अस्तु तर्हि इदानीं तत्र पङ्क्तिशः पश्यामः। तत्र अस्तु, तत्र शुभभगिनी आरम्भं करोति वा भगिनि?
आं महोदय। दुर्योधनः, आचार्य प्रणामः, कृपया उत्थीयताम्। तत्र सम्बोधन आचार्य
इदानीं तत्र आरम्भे एकवारं पुनः एतत् केवलं वदामः, यतोहि तत्र मनसि सम्यक्तया स्थापितं भवति। तत्र सूत्रं कर्तृसूत्रं किं कर्मणि सूत्रं किम् अपि तत्र विभक्त्यन्तमिति केवलं तत्र वाक्यद्वयं त्रयं वदतु भगिनि। तत्र कर्तृप्रयोगे सूत्रं किम्?
अस्तु महोदय, तत्र कर्तृप्रयोगे एकं द्वे एकम् इति कर्तृपदं प्रथमविभक्तौ, कर्मपदं द्वितीयविभक्तौ, क्रियापदं कर्तृपदं पदम् अनुसृत्य एकवचने
अनुसरति
अनुसरति
अनुसरति वचने च
वचने अपि च पुरुषे
पुरुषे. इदानीं कर्मणि प्रयोगे
तत्र त्रीणि एकम् एकम् इति सूत्रं, तत्र कर्तृपदं तृतीयविभक्तौ अपि च कर्मपदम् अपि क्रियापदं कर्मपदं प्रथमाविभक्तौ कर्मपदम् अनुसृत्य क्रियापदम् एकवचने
अथवा
अनुसरति अनुसरति एव
कर्मपदम् अनुसर क्रियापदं कर्मपदम् अनुसरति कस्मिन् विषये तत्र वचने अपि पुरुषे
वचने अपि पुरुषे आम्
पुरुषे इति अस्तु समीचीनं भगिनि. हा अस्तु इदानीं तत्र
अपि च भावे इति वदनीयं वा भावे किं भवति इति
भावे मध्ये किम् अस्ति नियमः कः
भावे इति तत्र कर्मणि प्रयोगः सकर्मकधातूनाम् एव भवति अकर्मकधातूनां कृते भावे प्रयोगः एव भवति अपि च तत्र भावे प्रयोगे आत्मनेपदीरूपं क्रियापदस्य आत्मनेपदीरूपम् एकवचने एव
प्रथमपुरुषे
प्रथमपुरुषे एकवचने
सर्वदा
भवति
डिफाल्ट् इति
आम्
अस्तु समीचीनं भगिनि. अस्तु इदानीं तत्र
कृपया उत्थीयताम् इति तत्र
भावे वा कर्मणि वा
तत्र स्था धातुः तत्र स्था इति अत्र स्था अकर्मकः अकर्मकः
तत्र किमपि कर्मपदं नास्ति
नास्ति अतः तत्र भावे प्रयोगः एव अतः तत्र आत्मनेपदी एकवचने
अस्ति अत्र
अस्ति.
इदानीं पूर्णवाक्यं किम् अस्ति आचार्यः कृपया उत्तीयतां तत्र भवान् अस्ति वा अथवा किम् अस्ति तत्र
भवान् अस्ति तत्र
किन्तु कर्तृप्रयोगे कर्तृप्रयोगे इदानीं कर्मणि प्रयोगे
अधुना आचार्यः अस्ति चेत् आचार्येण कृपया उत्थीयताम् इति भवति
समीचीनम्. आचार्येण कृपया उत्थीयताम् अथवा भवता कृपया उत्थीयताम् समीचीनं
महोदय. कृपया एकवारं कर्मणि भावे पदा प्रयोक्तव्यम् इति वदति वा
पुनः वदतु महोदय.
कर्मणि अपि च भावे कदा प्रयोक्तव्यम् इति एकवारं वदति वा
तत्र सकर्मकधातूनां कर्मणि प्रयोगः अकर्मकधातूनां भावे प्रयोगः
किन्तु साक्षात् तथैव अस्ति वा अकर्मक अपि भावे
अकर्मक इत्युक्ते तत्र भावे एव यतोहि तत्र कर्मपदं नास्ति अपि तत्र यदि कर्मपदं नास्ति चेत् सकर्मकधातुः अस्ति किन्तु कर्मपदं नास्ति चेत् तत्र भावे प्रयोगः इव नियमः भवति नाम तत्र सः गच्छति इदानीं तत्र कर्मणि प्रयोगः किं भवति स अथवा सः ग्रामं गच्छति तत्र कर्मणि प्रयोगः कः
तेन गम्यते
तेन ग्रामः गम्यते किन्तु इदानीं तत्र सः इदानीं तत्र सः गच्छति इति अस्ति इदानीं किं कुर्मः तेन गम्यते इति एव भवति तत्र गम्यन्ते इति न वदामः खलु तेन गम्यते यतोहि कर्मपदं नास्ति अतः तत्र डिफाल्ट् अस्ति प्रथमपुरुषः एकवचने एव तत्र क्रियापदम् इति
यत्र कर्मपदं नास्ति
नास्ति तत्र वयं निर्णेतुं न शक्नुमः तत्र वचनं किं पुरुषः कः इति अतः यत्र एषः निर्णयः तत्र तस्य क्लेशः भवति निर्णयस्य क्लेशः भवति तत्र प्रथमपुरुषः एकवचनम् इति स्वीकुर्मः. अस्तु समीचीनम्.
विधिलिङ्गं महोदय केवलं लोट् एव वा
न तत्र सर्वे तत्र लट्लकारः कृतवन्तः इदानीं तत्र लोट्लकारः कुर्मः अग्रे अपि तत्र प्रायशः किं विधिलिङ्ग् इति अस्ति वा तत्र अन्यः लकारः किमपि अस्ति, तत्र लङ् लकारः अस्ति अग्रे, तदनन्तरं प्रायशः अस्मिन् पुस्तके तत्र वितिलिङ्ग्लकारः नास्ति इति. हा हा अस्ति महोदय, तत् तदपि भवति, लिङ्ग्लकारः अस्ति अग्रे. अस्तु, तत्र द्वाद्विंशः पाठः. अस्तु अस्तु, तर्हि अतः शोभगिनी इदानीम् अग्रे शीघ्रम्.
आम् आम्, शीघ्रं समुत्थीयताम्.
तत्र पुनः कर्तृपदस्य स्थापनेन वाक्यं किं भवति?
तत्र एकवचने अतः भवता भवता शीघ्रं शीघ्रमेव तत्र समुत्थीयताम् इति एव भवति.
समीचीनम्.
अपि च सूर्योदयः समासन्नः समासन्नः तत्र समा आसन्नः इति तत्र विस्मृतवती महोदय, तत्र सम आसन्नः वा समासन्नः?
समासन्नः नाम तत्र समासन्नः नाम सूर्योदयः जातः इति.
तत्र
समासन्नः न सन्निहितः इति.
सन्निहितः
तत्र समीपम् अस्ति, तत्र सूर्योदयः समीपः अस्ति इति.
तत्र अस्ति इति क्रियापदम् अस्ति किल महोदय? सूर्योदयः समासन्नः
अस्ति इति.
अस्ति इति
अस्ति इति तत्र समासन्नः इति नाम तत्र इदानीं तद् भवति अथवा इदानीमेव अभवत् इति, तत्र द्वय अर्थद्वयमपि भवति भगिनि.
भवति तत्र
अतः तत्र
अभवत् अपि भवति अभवत् भवति.
किन्तु अभवत् नाम इदानीमेव अभवत् इति अथवा किञ्चित् कालानन्तरं भवति अपि. नाम तत्र समीपं सूचयति, सन्निहितः नाम समीपं सूचयति, किन्तु सूर्योदयात् प्राक् किं तत्र निमेषद्वयमस्ति, निमेषद्वयानन्तरं सूर्योदयः भवति, अथवा इदानीमेव सूर्योदयः अभवत् केवलं निमेषद्वयमेव निमेषद्वयात् पूर्वमेव सूर्योदयः अभवत् इति. अतः तत्र सूर्योदयस्य समयस्य समीपसमयः इति.
अस्तु महोदय, अस्तु, तत्र अर्थः अवगतम्, अर्थम् अवगतं, किन्तु अस्ति इति क्रियापदं
तत्र सम् आसत्. हा 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 आसन्नः आसन्नः सत्यं भगिनि तत्र. हा इति तत्र मूल तत्र प्रक्रिया न जानामि, किन्तु तत्र अस्ति इति धातु धातुना कृतं पदम् इति तत् सत्यमेव भगिनि. हा
परिवर्तनं कथं भवनीयं तत्र?
अतः उक्तवान् तत्र प्रक्रिया न जानामि भगिनि.
न अस्तु, किन्तु तावदेव वा तत्र महोदय? किमपि
तावदेव तत्र तत् सन्निहितः तत्र तप्रत्ययस्य योजनेन तादृशरूपम् इति अपि वक्तुं शक्नुमः.
अस्तु,
तत्र गतः इति अर्थे तत्र कर्तृर्थे. यतोहि तत् विशेषणम् अस्ति, सूर्योदयः कीदृशः?
समासन्नः सूर्योदयः अस्ति इति. अस्तु तत्र अस्तु महोदय.
अग्रे
द्रोणः वत्स भवता सावधानेन भूयताम् इति. तत्र तु
एकनिमिष तत्र निकटस्थम् इति तत्र कल्पद्रुम मध्ये एतदेव दत्तमस्ति. निकटस्थं निकटस्थं समां पूर्व सद्धातोः क्त प्रत्ययेन निष्पन्नम् इति.
अस्तु महोदय, मम प्रश्नः तत्र किञ्चित् क्लेशः अस्ति इति क्रियापदम् अस्ति, तत्र किमपि परिवर्तनं भवितुं शक्यते वा महोदय? कर्मणि सूर्योदयेन इति किमपि न भवति?
तत् प्रायः नास्ति भगिनि, नास्ति. केवलं तत्र क्रियापदम् अस्ति चेत् तत्र कर्मणि प्रयोगः भवति.
अस्तु महोदय,
किन्तु तत्र एतत् क्रियापदं नास्ति खलु, तत्र नामपदम् अस्ति.
किन्तु अस्ति चेत् अस्ति इति अस्ति, किन्तु तत्र न दत्तम् अतः.
हा, अपि अस्ति इति क्रियापदस्य कर्मणि प्रयोग तत्र वयं जानीमः, तत्र भू धातुः इति स्वीकृत्य
भूधातुः एव भूयताम्
वदामः. सत्यम्.
अस्तु. द्रोणः, द्रोणः वत्स, वत्स भवता सावधानेन भूयताम् इति. तत्र भवता तत्र तृतीया भवता अपि सावधानेन अपि तृतीया भूयताम् इति. भूधातुः कर्मपदं न स्वीकरोति, अतः भावे प्रयोगः तत्र एकवचने.
समीचीनं भगिनि. इदानीं तत्र यत्र यत्र कर्तुं शक्नुमः तत्र कर्तृरूपमपि वदामः, नो चेत् तत्र यदि वदामः लाभः भवति. अतः तत्र कर्तृप्रयोग कर्तृरूपं किम् अस्ति अत्र?
तत्र भवान् सावधानं भवतु,
न न सावधानेन भवतु इति,
सावधानेन भवतु. ओ,
भवान् कथं भवतु, भवान् कथं भवतु, सावधानेन सावधानेन भवतु,
सावधानेन भवतु. सावधानम् इति न भवति तत्र.
हा, यतोहि तत्र सावधानेन इति एव रूपमस्ति, सावधानं दानेन इति एव स्वीकुर्मः. तत्र तत्र भवता इति क्रिया तत्र कर्तृपदस्य विशेषणं नास्ति इति चिन्तयामः, अतः तत्र भवान् सावधानेन भवतु इति वाक्यं स्वीकृत्य तस्य कर्मणि प्रयोगे किं भवति, भवता सावधानेन इति तिष्ठति एव, यतोहि तत्र कर्तृपदं नास्ति, विशेषणं नास्ति, कर्मपदं नास्ति, अतः भवतु स्थाने भूयताम् इति भवति. अग्रे
अग्रे त्वरया किमपि न क्रियताम्, तत्र क्रियताम् इति क्रियापदं, त्वरया इति तृतीयविभक्तौ, तत्र किमपि न तिष्ठति, अतः तत्र कः करोति क्रियतां, त्वरया न क्रियताम्. कर्तृपदम् अस्मिन् वाक्ये पुनः भवता एव भवति.
सत्यं, भवता
भवता त्वरया किमपि न क्रियताम्
इति. समीचीनं. तत्र क्रियताम् इति सकर्मकधातु वा असकर्मकक्रियापदं वा तत्र
करोति? महोदय, क्रूधातुः सकर्मकधातुः,
अतः
तत्र कर्मणि
कर्मपदम् अस्ति वा अस्मिन् वाक्ये?
त्वरया किमपि न तत्र नास्ति महोदय, किमपि न क्रियताम्.
तत्र साक्षात् किमपि न करोति, किन्तु कर्मपदम् अस्ति वा इति प्रश्नः.
तत्र नास्ति किल महोदय, त्वरया किं
भवता, भवता इति अस्ति, भवता इति कर्तृपदं खलु,
भवान् कर्मपदम् इति उक्तवान् किल?
भवता तत्र कर्मणि प्रयोगे भवता इति, भवता इति कर्तृपदं, त्वरया तत् त्वरया तिष्ठति. किम् अपि तत्र किम् इति अस्ति पदं, तत् किम्?
ओ, तत्र प्रश्नार्थ अस्तु, किं किमपि इति
किमपि न क्रियताम्.
अस्तु, न क्रियतां, किमपि न क्रियतां, कर्मपदं भवति तर्हि.
किमेव कर्मपदं,
किमेव कर्मपदं भवति.
किन्तु तत्र सः किमपि न करोति, किन्तु
किन्तु क्रियापदं भवति. नो चेत् तत्र क्रियताम् इत्यस्य अन्वयः कुत्र भवेत् इति. किमपि नास्ति तत्र, त्वरया किमपि न क्रियताम्. किं न क्रियताम् इत्युक्ते किमपि इति भवति.
सत्यम्. इदानीं तत्र कर्तृरूपं वदतु तत्र.
तत्र भवान् त्वरया किमपि न करोतु
इति. समीचीनं भगिनि, तावत् भवान् त्वरया किमपि न करोतु इति. गीताञ्जलि भगिनी नमस्कारः. पुटसङ्ख्या अस्ति 134 भगिनी. अस्तु अस्तु,
शृणोति.
हा, सत्यं भगिनि, उत्तमप्रश्नः. अतः तत्र
परस्मैपदी
सकर्मकधातुः
एव
सकर्मकधातुः. किन्तु प्रश्नः तु समीचीनं भगिनि, तत्र क्रु धातुः उभयपदी अस्ति,
करोति कुरुते इति भवति किल महोदय?
करोति इति, करोति इति रूपं तत्र, हा
करोति अपि च कुरुते इति आत्मनेपदी,
सत्यं कुरुते
कर्तृप्रयोगे,
कर्तृप्रयोगे इदानीं तत्र करोति इति तस्य कर्मणि प्रयो कर्मणि रूपं किं भवति?
क्रियते इति भवति,
क्रियते. इदानीं कुरुते इति तस्य
कुरुते इति अपि क्रियते एव,
क्रियते एव. अतः तत्र न जानीमः उभयपदी धातुः अस्ति चेत् तत्र केवलं कर्मणि प्रयोगः एव, तत्र कर्मणि प्रयोगम् एव जानीमश्चेत् कर्तृप्रयोगे तत्र क्रियापदस्य रूपं तत्र किं परस्मैपदी रूपम् आसीत् वा आत्मनिपदी रूपम् आसीत् वा इति न जानीमः. अतो यतोहि तत्र द्वयोः अपि तत्र कर्मणि रूपं समानमस्ति, उभयपदी अस्ति चेत् तत्र क्रु धातुः उभयपदी अस्ति, करोतु अथवा तत्र भवान् किं तत्र लोट्लकाररूपं स्वीकुर्मः, तत्र लोट्लकारे किम् अस्ति? भवान् त्वरया किमपि न
करोतु
अथवा भवान् किमपi न कुरुताम्,
कुरुताम्
कुरुताम् इति.
लोट्लकारे कर्तरिप्रयोगे रूपद्वयं,
रूपद्वयं किन्तु कर्मणि प्रयोगे एकमेव रूपम्. अतः तत्र यदि न जानीमः विकल्पः इति चिन्तयामः तावदेव, यतोहि तत्र ज्ञानं नास्ति.
आं महोदय,
केवलम् उभयपदी अतः रूपद्वयम् अस्ति इति एव तत्र वार्ता, तावदेव. अस्तु सूर्यकुमारी भगिनी, समीचीनं वा इदानीं?
महोदय,
अस्तु अस्तु, तर्हि अग्रे शोभा भगिनी अग्रे पठतु.
ओ अस्तु महोदय. तत्र दुर्योधनः, गुरुवर्य कथं मया सावधानेन भूयताम्? तत्र कर्तरिप्रयोगः भवति चेत् गुरुवर्य कथम् अहं सावधानेन भवामि इति भवति.
भवानी, भवानी
कथम् अहं सावधानेन भवामि इति,
भवानी
भवानी क्षम्यतां,
लोट्लकारे
भवानी इति भवति.
हा,
अपि च तावदेव किल महोदय? तत्र आतङ्कवता मया किमपि क्रियताम् एव खलु? तत्र कर्तरी भवति चेत् आतङ्कवता अहं किमपि करवाणि एव खलु? न न करवाणि करवाणि भवति किल
महोदय?
अहं लोट् करवाणि एव, करवाणि एव खलु इति,
करवाणि एव अहं किमपि करवाणि एव खलु आतङ्कतया आतङ्कवता
आतङ्क,
किन्तु तत्र आतङ्कवता इति अस्ति, तत्र आतङ्कवता किं भवति? आतङ्कवता इति तस्य प्रातिपदिकं किम्?
आतङ्कवत् इति भवति. आतङ्क, ओ
प्रथमाविभक्तौ
आतङ्कवान् अहं,
हा
आतङ्कवान् अहं किमपि करवाणि एव खलु
इति. समीचीनं भगिनि,
आतङ्कवान्
अहम् अस्मि अतः अहं किमपि करवाणि एव खलु इति.
तत्र आतङ्कवता इति तृतीया,
तत्र विशेषणम् अस्ति कर्तृपदस्य. अग्रे
अग्रे द्रोणः वदति, वत्स जानामि भवतः परिस्थितिम्.
इदानीं तत्र तस्य कर्मणि करोतु भगिनि, यतो तत्र लोट्लकारः नास्ति. अहं भवतः,
अहं जानामि भवतः परिस्थितिं जानामि इति. तर्हि तत्र मया भवतः परिस्थितिं, मया भवतः परिस्थितिः तत्र जानामि इति,
तत्र
धातुः ज्ञा धातुः ज्ञाये,
किन्तु तत्र
लोट्लकारे
न केवलम् इदानीं तत्र लट्लकारे एव,
लट्लकारे
लट्लकारे किन्तु तत्र क्रियापदं कं पदम् अनुसरति कर्मणि प्रयोगे?
कर्मपदम्।
हा, कर्मपदम् अत्र किम् अस्ति?
परिस्थितिम् इति।
परिस्थितिः,
परिस्थितिः इति भवति।
इदानीम् अत्र तत्र
परिस्थितिः
ज्ञाधातुः
ज्ञाधातुः
क्रियापदं क्रियापदं कर्मपदम् अनुसरति। कर्मपदमस्ति परिस्थितिः इति।
अतः परिस्थितिः
मया इति त्यजतु, केवलं परिस्थितिः इति अस्ति। इदानीं ज्ञा इति ज्ञाधातुः
तत्र ज्ञाये इति भवति इति मन्ये महोदय, जाने इति भवति किल?
न न ज्ञा ज्ञादतु ज्ञायते इति
ज्ञायते
अथवा
ज्ञायते अस्ति चेत् तत्र
ज्ञायते इति वा अथवा ज्ञाये इति वा इति प्रश्नः।
ज्ञायते इति
किमर्थम्?
ज्ञायते इति किमर्थं? कर्मणि कर्मणि अस्ति इति कृत्वा तत्र कर्मपदम् अनुसरति इति कृत्वा
कर्मपदम् अस्ति। कर्मपदं किं? भवतः परिस्थितिः।
परिस्थितिः ज्ञायते
ज्ञायते
मया तदेव भवति।
मया भवतः परिस्थितिः
ज्ञायते
इति समीचीनम्। अतः तत्र
ज्ञायतां महोदय
किं भगिनि?
ज्ञायते ज्ञायते
लट्लकार यतोहि तत्र एतत्तु तत्र जानामि इति एव अस्ति खलु, तत्र लोट्लकारं नास्ति, लोट्लकारः नास्ति खलु अस्मिन् वाक्ये।
अपि च अग्रे वत्सेन दुःख वत्सेन दुःशासनेन अपि सन्निहितेन भूयतां खलु, तत्र कर्तरिप्रयोगः भवति चेत् वत्सेन दुःशासनेन अपि सन्निहितेन भूयतां खलु। तत्र वत्सः दुःशासनः अपि सन्निहितं भवतु खलु इति भवति
सन्निहितेन तत्र
सन्निहितः भवतु सन्निहितः भवतु खलु
खलु भवतु खलु इति समीचीनं भगिनि। अथवा तत्र भवतु खलु इति स्थाने अन्यत् किं स्थापितुं शक्नुमः? तत्र तत्र अस्तु इति खलु,
सन्निहितः अस्तु।
हा, तत्र अस्धातुः अपि भूधातुः तत्र तयोः कर्मणि प्रयोगः समानः भवति। तत्र अस्ति इति चेत् भूयते, भवति अपि भूयते
भूयते। आम्,
अतः तत्र तत्रापि तत्र विकल्पद्वयम् अस्ति। अतः तत्र भूयताम् इति अस्ति चेत् तत्र सः अपि अस्तु अथवा सः अपि भवतु सन्निहितः दुःशासनः, वत्सः दुःशासनः अपि सन्निहितः भवतु अथवा अस्तु
अस्तु
खलु इति। तत्र पूर्वे पूर्वस्मिन् वाक्ये तत्र मया सावधानेन भूयताम् इति, तत्र अहं सावधानेन तत्र भवानि
भवति
इति, अथवा तत्र अस् धातुः अस्ति चेत् तत्र असानि
असानि तद् परिचितं नास्ति।
तत्र तत्र अस्तु तत्र अस्तु सन्तु इति तद् बहुवारं श्रुतवन्तः खलु।
आम्,
अस्तु सन्तु अपि तत्र तत्र पठानि पठाव पठाम इव असानि असाव असाम इति अस्ति। किन्तु तत्र भवतु अथवा भवानि इति तत्तु प्रसिद्धः एव, अतः तदेव स्वीकुर्मः। अस्तु तर्हि इदानीं तत्र अग्रे तत्र सूर्यकुमारी भगिनी अग्रे पठति वा?
महोदय, दुर्योधनः एषः वत्सः दुःशासनः उपस्थितः एव अस्ति।
इदानीं तत्र अस्ति इति तत्र तत्र लट्लकारे अस्ति भगिनि, किन्तु एकवारं तत्र कर्मणि प्रयोगं कर्तुम् इच्छति
वा? एतेन वत्सेन दुःशासनेन उपस्थितेन एव भूयताम्
लोट्लकारः नास्ति, केवलं लट्लकारः, भूयते
भूयते
इति समीचीनं भगिनि, उत्तमम्. अतः तत्र सर्वं तत्र विशेषणमस्ति, तत्र दुःशासनः इति पदस्य विशेषणम्. अतः एतेन वत्सेन दुःशासनेन उपस्थितेन एव भूयते. समीचीनम्. अग्रे
दुःशासनः आचार्य वन्दे.
तत्र कर्तृपदं किम् अस्ति?
अहं वन्दे.
अहं वन्दे, हा. तत्र वन्दे इति तत्र किम् अकर्मकः वा अथवा सकर्मकः वा?
सकर्मकः.
हा, अतः तत्र कर्मपदमपि योजयामः. तत्र किम्? अहम् अहं भवन्तं
भवन्तं वन्दे.
अहं भवन्तं वन्दे. इदानीं तत्र कर्मणि प्रयोगः कथं कः? मया
मया आचार्यः वन्द्यताम्.
वन्द्यताम् इति लोट्लकारः, लट्लकार एव
वन्द्यते.
हा, मया आचार्यः वन्द्यते. अस्तु, समीचीनम्. अग्रे भगिनि.
दुर्योधनः आदिश्यताम् अनन्तरं किं क्रियताम् इति आदिश्यताम् आदिः न आदिश्यताम्
आदिश्यताम्
अनन्तरं किं क्रियताम् इति
आदिश्यताम् इति तत्र कर्तृपदं किम् अस्ति?
उपसर्ग दिशते आदिश्यते महोदय. आदिश्यते आदिश्य
लोट् लकारे अस्ति भगिनि, किन्तु तत्र कर्तृपदं स्थापयतु इति वदामि.
आदिश्यताम् आदिश्यते. क्षम्यतां महोदय. आदिश्यतां कर्मणि प्रयोगम् अस्ति.
कर्मणि प्रयोगे अस्ति, सत्यं, समीचीनं.
लोट् लकार अपि अस्ति. लोट् लकार आदिश्य आदिषु लोट्लकार अहं
न भगिनि, तत्र कर्मणि प्रयोगः इति उक्तवती. इदानीं तत्र वाक्यम् अस्ति चेत् तत्र
आदिश्यताम्
आदिश्यताम् इति तत्र, किन्तु तत्र दुर्योधनः कम् उद्दिश्य वदति तत्र?
द्रोणः.
द्रोणम् उद्दिश्य वदति खलु?
वदति,
सत्यं खलु? दुर्योधनः द्रोणम् उद्दिश्य वदति आदिश्यताम् इति. इदानीं तत्र कर्तृपदं किं भवेत्?
यदि अहं
न आदिश्यताम् इति अस्ति.
ओ, आदिश्यताम्.
तत्र आदेशः इति चिन्तयतु. इदानीं कः आदेशं करोति?
दुर्योधनः.
न द्रोणम् उद्दिश्य वदति खलु दुर्योधनः, कः आदेशं वदति? आदेशं
कर्तुं द्रोणः आदेशं
करोति खलु?
करोति.
हा, अस्तु. इदानीं दुर्योधनः द्रोणम् उद्दिश्य वदति आदिश्यताम् इति. अतः तत्र किं भवति? तत्र पूर्णवाक्यं किं भवेत्? कर्तृपदं किं भवेत्?
द्रोणः दुर्योधनं
भवता अथवा भवान् भवति.
भवान् आदिशतु.
हा, भवान् माम् माम् आदिशतु इति भवेत् खलु भगिनि? इदानीं भवान् माम् आदिशतु इति स्थाने किं भवति? भवता
भवता अहम् आदिश्यामि.
तत्र आदिश्ये इति भवति, अथवा तत्र इदानीं तत्र लोट्लकारे अस्ति इति कृत्वा तत्र किं भवति?
लोट्लकारे अस्ति चेत्
आदिश्यै इति, आदिश्यै. किन्तु अत्र केवलम् आदिश्यताम् इति अस्ति, अतः माम् अहं किमपि नास्ति, भवता आदिश्यताम्. भवान् आदिशतु, आदेशं भवान् आदेशं ददातु, अथवा भवान् आदिशतु, अथवा भवत्या आदिश्यताम्.
महोदय तत्र
भवता, भवत्या न वा, भवत्या न, भवता वदतु महोदय.
भवता
आदिश्यताम्.
भवता अहम्
आदिश्यताम्? अहं नास्ति खलु भगिनि, यतोहि अहम् अस्ति चेत् कर्मपदम् अहम् इति भवति खलु. हा, कर्मपदम् अहम् अस्ति चेत् तत्र आदिश्यताम् इति तत्तु प्रथमपुरुषे एकवचनं, किन्तु उत्तमपुरुष प्रथमवचन उत्तमपुरुषे एकवचनरूपम् आवश्यकं खलु तत्र.
ओके, आदिश्यामि.
आदिश्यै इति आत्मनेपदे दातु, आदिश्यै. अतः किन्तु आदिश्यै नास्ति, अतः तत्र ते केवलं तत्र अवगमनार्थम् अहं तत्र माम् इति स्थापितवान्, किन्तु तत्र भवान् आदिशतु इति स्वीकरोतु. इदानीं वाक्यं किं भवति? भवता आदिश्यताम् इति, कर्मपदं नास्ति. भवान् आदिशतु कर्मपदं नास्ति तत्र, केवलं कर्तृपदं क्रियापदम्. इदानीं कर्मणि प्रयोगः भवता आदिश्य,
आदिश्य.
समीचीनं वा भगिनि? आदिश्यतां किं महोदय? रघुवीरन् स्वामी, कः प्रश्नः?
तत्र आदिश्यतां यदस्ति, कर्तरि यथा धातु अस्ति तथैव कर्ता तथैव अस्ति प्रथमपुरुष एकवचनं खलु
कर्तृप्रयोगे. हा, कर्तृप्रयोगे,
कर्तृप्रयोगे,
सत्यं महोदय. अतः तत्र
तथैव मनसि प्रयोक्तव्यं धातु.
भवान् भवान् हा सत्यं महोदय, भवान्
भवान्
आदिशतु, आदिशतु,
आदिशतु, भवान् आदिशतु.
इदानीं तत्र कर्मणि कुर्मः भवता आदिश्यताम्.
आमहोदय,
यतोहि इदानीं कर्मपदं तत्र नास्ति, अतः डिफाल्ट् अस्ति प्रथमपुरुषः एकवचनः, एकवचनमिति, अतः आदिश्यताम् इति एव स्वीकुर्मः.
किन्तु तत्र भावे इति नास्ति वा?
भावे इति अपि
भवता,
तत् नियमः समानः तावदेव, किन्तु भावे इति साक्षात् न वक्तुं शक्नुमः, यतोहि सकर्मकधातुः अस्ति.
आम्,
तावदेव. किन्तु कर्मपदं नास्ति चेत् भावे प्रयोगः इव वर्तते, तावदेव.
अनन्तरं किं क्रियताम् इति, अनन्तरं किं क्रियताम्
इति आदिश्यताम्. तत्र अनन्तरं क्रियताम्
इति आदिश्यताम्.
इदानीं तत्र किं क्रियताम् इति, तत्र तत्र कर्मपदं किं भवति?
किं
न, अस्तु, किम् इति. कर्तृपदं किं भवति?
अहम्.
हा, अतः कर्मणि प्रयोगे अहम् इति पदस्य रूपं
किं क्रियताम्
इति आदिश्यताम्. इदानीम् अवगच्छति वा?
हा,
मया भवता आदिश्यतां, मया किं क्रियताम् अनन्तरम् इति भवता आदिश्यताम्. भवान् आदेशं ददातु, अहं किं करवाणि इति, अनन्तरं किं करवाणि इति भवान् आदेशं ददातु इति तस्य कर्मणि प्रयोगः अत्र अतः मया अनन्तरं किं क्रियताम् इति भवता उच्यताम् अथवा आदिश्यताम् इति अस्तु अग्रे
पठामि वा
पठतु भगिनि अग्रे
द्रोणः श्रूयताम्
हा इदानीं तत्र किमस्ति श्रूयतां कर्तृपदं किमस्ति
कर्तृपदं
तत्र कर्तृप्रयोगः वदतु भगिनि श्रूयताम् अस्ति चेत् तत्र किं
नो त्वं
त्वं
श्रूयते
न कर्तृप्रयोगः त्वं
शृणोमि
शृणु त्वं शृणु
त्वं शृणु
हा इति तावदेव कर्तृप्रयोगः अतः एव कर्तृप्रयोगः यदि मनसि भवेत् सुलभः भवति त्वं शृणु त्वं शृणु इति द्रोणः वदति इदानीं तस्य कर्मणि प्रयोगः वदतु त्वया नमस्कारः भगिनी गीताञ्जलि भगिनी वदतु
नमस्कारः महोदय तत्र शृणोतु भवति न लट्टि
हा किन्तु त्वम् इति अस्ति खलु भगिनि
त्वम् अस्ति चेत्
भवान् शृणोतु किन्तु त्वं शृणु खलु
अस्तु अस्तु हा हा अवगतं
भवान्
श्रूयतां किन्तु सत्यं त्वं कथं भवति
किन्तु एकनिमिषं भगिनि अस्तु भिन्नप्रश्नः भिन्नप्रश्नः किन्तु प्रथमतया तत्र कर्तृप्रयोगे किम् इति चिन्तयामः कर्तृप्रयोगे भवान् शृणोतु अथवा त्वं शृणु इति समीचीनं खलु गीताञ्जलि भगिनी तत्र भवान् शृणोतु अथवा त्वं शृणु इति लोट् लकारे समीचीनम् अस्ति खलु इदानीं वाक्यद्वयम् अस्ति तस्य कर्मणि प्रयोगः कः इति वदतु भवान् शृणोतु इति अस्ति तस्य कर्मणि प्रयोगः किं कः
भवान् श्रूयत्
न भवान् शृणोतु इति
भवान् शृणोतु भवान् श्रूयताम्
न भवता इति अस्ति खलु तृतीयविभक्तिः खलु
तृतीया क्षम्यतां महोदय भवता
श्रूयताम्
अपि च त्वया शृणु
न त्वं शृणु किन्तु
नो 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 भावे अस्ति
भावे न किन्तु कर्मपदं नास्ति कर्मपदं नास्ति अत्र अतः त्वया अतः त्वया
त्वया
श्रूयतां
त्वया श्रूयतामपि
एव अतः तत्र भवता श्रूयताम् अथवा त्वया श्रूयतां तदेव भवति
क्षम्यतां
महोदय चिन्ता मास्तु भगिनि चिन्ता मास्तु अतः तत्र त्वं शृणु अथवा भवान् शृणोतु किन्तु कर्मणि प्रयोगे भवता अथवा त्वया श्रूयताम् एव भवति अस्तु समीचीनम् अस्तु अग्रे सूर्यकुमारी भगिनी तत्र अग्रिमवाक्यं तत् अस्ति
सर्वसैन्याधिपः सर्वसेनासंरक्षकः भीष्म पितामहः प्रबोध्यताम् कर्मणि प्रयोगः अस्ति महोदय प्रथमं सर्वसैन्याधिपः सर्वसेनासंरक्षकः भीष्मपितामहः प्रबोध्यताम् भावे प्रयोगः अस्ति
भावे प्रयोगः अस्ति वा किमर्थं
कर्मपदं नास्ति कदा
कर्मपदं नास्ति वा अस्मिन् वाक्ये अस्तु कर्तृपदं किम् अस्ति कर्तृपदं किमस्ति अस्मिन् वाक्ये
ओ
अस्माकं सूत्रं किमस्ति कर्मणि प्रयोगे सूत्रं किमस्ति न संस्कृते वदतु
न
संस्कृते संस्कृतभाषायां वदतु भगिनि एतत् 3-1 एतत् किम् अस्ति न जानामि
भावे प्रयोगे
कर्मणि प्रयोगे सूत्रं किम् इति वदतु भगिनि
कर्मणि प्रयोगे एकं नो त्रीणि त्रीणि एकम् एकं
त्रीणि नाम किं
कर्तृपदम्
कर्तृपदस्य तृतीया विभक्त्यन्तं भवेत् एकं नाम किम्
एकं नाम प्रथमा विभक्ति
कर्मपदस्य प्रथमा विभक्त्यन्तं भवेत् अस्तु तत् पुनः एकम् इति अस्ति तस्य नाम किं तत्र पुनः एकम् इति अस्ति
क्रियापदं
कर्मपदम् अनुसरति कस्मिन् विषये वचने पुरुषे च इदानीम् अस्मिन् वाक्ये कर्तृपदम् अस्ति चेत् कर्तृपदस्य विभक्ति का कर्मणि प्रयोगे
तृतीया
अस्मिन् वाक्ये तृतीया विभक्त्यन्तं पदम् अस्ति वा अतः कर्तृपदं साक्षात् न दत्तं किन्तु कर्तृपदं किं भवेत्
मया
किन्तु तत्र द्रोणः वदति खलु द्रोणः किम् आदेशं ददाति खलु भवती एव उक्तवती तत्र त्वया श्रूयतां नाम त्वं शृणु इदानीं त्वं शृणु अस्ति चेत् तत्र किं भवान् त्वं किं करोषि इति शृणु इति एव भवेत् खलु अतः त्वया
त्वया प्रथमं सर्वसेनाधिपः सर्वसेनाध्यक्षः भीष्मपितामहः प्रबोध्यताम्
त्वया प्रथमं सर्वसेनाधिपः सर्वसेनासंरक्षकः भीष्मपितामहः प्रबोध्यताम् इदानीं तत्र कर्तृप्रयोगः कः इति वदतु त्वं
त्वं सर्वसैन्याधिपं सेनासंरक्षकं भीष्मपितामहं
प्रबोधयतु
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 प्रबोध कथं वदामः प्रबुध
न न बुद्ध धातुः अस्ति किन्तु णिच् अस्ति भगिनि नाम अन्यस्य कृते अस्ति अतः तत्र
प्रबोधय
प्रबोधयतु त्वम् इति अस्ति अतः प्रबोधय प्रबोधय समीचीनं
त्वं प्रबोधय
त्वं प्रबोधय समीचीनं समीचीनं वा भगिनि त्वं प्रबोधय अथवा त्वं प्रबोधयतात् किन्तु त्वं प्रबोधयति एव प्रसिद्धरूपं अतः प्रबोध्यताम् इति स्थाने प्रबोधय इति कर्तृरूपे भवति तत्र सर्वसैन्याधिपः सर्वसेनासंरक्षकः इति विशेषणद्वयमस्ति भीष्मपितामहः इति पदस्य अस्तु समीचीनं भगिनि धन्यवादः सूर्यकुमारी भगिनि अस्तु इदानीम् अग्रे तत्र नरेश महोदय अग्रे पठति वदति वा
आं महोदय दुर्योधनः अस्तु तत्र भवतां स्नानानुष्ठानादिकं शीघ्रं परिसमाप्यताम्
इदानीं तत्र
क्षम्यतां महोदय प्रथमपदम् इति तत्र भवता अस्ति भवताम् अस्ति मम पुस्तके भवता अस्ति तां नास्ति
अस्तु भगिनि अस्तु तत्र प्रायशः तत्र भगिनि तत्र भवता अपि भवेत् भवतामपि समीचीनमेव अस्ति भगिनि नाम भवता अस्ति चेत् साक्षात् कर्तृपदम् अस्ति कर्तृपदस्य तृतीयविभक्तन्तं नाम भवान् भवान् परिसां समापयतु इति. इदानीं तत्र भवताम् अस्ति चेत् तत्र किम् अस्ति?
षष्टि.
षष्टि तत्र भवतां स्नान स्नानानुष्ठानादिकं तत्सर्वं शीघ्रं परिसमापयतु इति. अतः भवत् भगिनी तत्र प्रायशः तत्र सम्पूर्णवाक्यं स्वीकुर्मश्चेत् तत्र प्रायशः तत्र भवता भवतां स्नानानुष्ठानादिकं शीघ्रं परिसमाप्यताम् इति स्वीकर्तुं शक्नुमः.
भवान् भवताम्
किन्तु कर्मणि प्रयोगे भवता इति
भवता भवताम्.
गीताञ्जलि भगिनी समीचीनं वा इदानीम्?
हा 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 इत्युक्ते भवता भवतां स्नाना
सत्यं सत्यं तत्र स्व इति तत्र स्व इति अर्थे किन्तु तत्र गौरवेण वदामः तत्र भवता भवताम् इति वदामः तावदेव स्वस्य इति स्थाने भवता भवताम् इति बहुवचने तत्र भवताम् इति. अस्तु
धन्यवादः.
अस्तु अस्तु नरेश महोदय अस्तु तत्र
अग्रे
न न किन्तु तत्र किं तत्र कर्तरिप्रयोग कः इति वदतु महोदय.
कर्तरिप्रयोगे तत्र भवान् भवतां स्नानानुष्ठानादिकं शीघ्रं परिसमापयतु.
हा परिसमापयतु
तत्र भवत् साहाय्यार्थं दुःशासनेन अत्र एव स्थीयताम्. तत्र भवतः साहाय्यार्थं दुःशासनम् अत्र स्थीयताम् किमस्ति परस्मैपदी
तिष्ठति किन्तु लोट्लकारः
तिष्ठतु
तिष्ठतु इति किन्तु किन्तु पुनः एकवारं वदतु तत्र तत्र भवतः
तत्र भवतः साहाय्यार्थं आसनम् अत्र एव
न न तत्र तत्र भवतः साहाय्यार्थम् अग्रिमपदं किम्
दुःशासनम्
किमर्थं दुःशासनम् इति अस्ति?
दुःशासनः अत्र एव तिष्ठति तिष्ठति
तिष्ठतु लोट्लकरे तिष्ठतु दुःशासनः भवतः साहाय्यार्थं तत्र अत्र एव तिष्ठतु सः अत्र एव तिष्ठतु. किमर्थं तिष्ठतु अत्र एव? भवतः साहाय्यार्थं सः अत्र एव तिष्ठतु. अग्रे
वत्स
इदानीं वत्स न वत्स इति कम् उद्दिश्य वदति सः?
दुःशासनं
दुःशासनम् उद्दिश्य सः दुर्योधनः वदति. हा अनुजम् उद्दिश्य दुर्योधनः वदति
भवता अत्र एव भूयताम्.
हा तत्र वयं जानीमः तत्र दुर्योधनः अनुजम् अनुजान् प्रति
वदति
तत्र आधार तत्र अनुजाः ये सन्ति तेषां कृते तस्य आदरः अस्ति किन्तु ज्येष्ठाः ये सन्ति तेषां कृते आदरः नास्ति. अतः तत्र अनुजः अस्ति तम् उद्दिश्य एषः किं वदति? भवान् इति वदति.
भवान् अत्र एव भवतु
भवान् अत्र एव भवतु इति समीचीनम् अग्रे
अनुष्ठानन्तरम् आचार्यः रणक्षेत्रम् अनीयताम्
हा तत्र किम् अस्ति
अनुष्ठानानन्तरं
तत्र कर्तृपदं किमस्ति अस्मिन् वाक्ये
आचार्यः
न न न कर्तृपदं कर्तृपदं
कर्तृपदं कर्तृपदं तु भवान्
हा
भवान्
अतः
दुःशासन कृते
हा अतः तत्र साक्षात् पदं किं भवति अस्मिन् वाक्ये कर्तृपदस्य रूपं किं भवति
भवान् अनुष्ठानं
भवान् इति न भवति खलु कर्मणि प्रयोगः अस्ति
कर्मणि भवता
अतः
अनुष्ठानन्तरम्
अनुष्ठानानन्तरम्
अनुष्ठानानन्तरम् आचार्यम् आचार्यः
भवता अनुष्ठानानन्तरं आचार्यः
रणक्षेत्रम् अनीयताम्
आनीयताम् इति अस्ति अत्र किञ्चित् तत्र क्लेशः अस्ति तत्र एकः अंशः अस्ति तत्र द्रष्टव्यः अंशः अस्ति तत्र आनीयताम् इति अस्ति हा तत्र धातुः कः
नीधातु
नीधातुः नीधातोः विशेषः कः अंशः विशेष अंशः कः
नीधातु विशेषः सकर्मकः अस्ति
सकर्मकधातुः अस्ति सत्यं किन्तु विशेषः
द्विकर्मकधातुः
अस्ति द्विकर्मकधातुः अस्ति द्विकर्मकः धातुः अस्ति इति कृत्वा तत्र नीधातोः तत्र कर्मपदद्वयं भवति कर्मपदद्वयं नाम तत्र समानकर्मपदमिति न
समानक्षेत्रम् अस्ति
हा तत्र किन्तु तत्र कर्मपदद्वयं तत्र
कर्मपदे
वदतु भगिनि
उपसर्गः अस्ति चेत् सकर्म भवति महोदय
न न न नयतु अपि सकर्मकः एव अस्ति खलु भगिनि तत्र हा नयति सः किं नयति सः किम् आनयति सा किम् आनयति तत्र कर्मपदं भवति नयति वा आनयति वा अतः तत्र कर्मपदद्वयं भवति कर्मपदं द्वयं समानं वा आचार्यः अपि रणक्षेत्रं न
एकः तु प्रधानः अस्ति
अन्यत् एकम् एकं तत्र प्रधानं कर्मपदम् अन्यत् गौण गौणकर्मपदं
गौणकर्मपदं
गौणकर्मपदं हा अत्र तत्र तत्र षोडश धातवः सन्ति द्विकर्मकः धातवः अपि तत्र षोडशः धातवः केवलं न किन्तु समानार्थकः धातवः ये सन्ति तत्र षोडशः धातवः ये सन्ति अपि समानार्थकः धातवः अपि तत्र तेषां समानार्थकधातवः ते सर्वे द्विकर्मकधातवः इति वदामः किन्तु साक्षात् धातवः द्विकर्मकः धातवः नाम षोडशः धातवः सन्ति तेषु तत्र नीधातुः अस्ति अपि तत्र अहं तत्र अन्ये के इति न स्मरामि किन्तु तत्र एकः अंश मुख्य अंशः अस्ति तत्र चत्वारः धातवः सन्ति येषां तत्र प्रधानकर्मपदस्य एव तत्र प्रथमाविभक्त्यन्तं भवति कर्मणि प्रयोगे अन्येषां द्वादशानां धातूनां गौणकर्मपदस्य एव प्रथमाविभक्तिः भवति कर्मणि प्रयोगे इति नियमः अस्ति किन्तु नीधातोः प्रधानकर्मपदस्य एव प्रथमाविभक्त्यन्तं भवति कर्मणि प्रयोगे तत्तदेव कर्मपदमिति स्वीकुर्मः प्रधानकर्मपदमेव कर्मपदमिति स्वीकुर्मः कर्मणि प्रयोगसमये इति अतः तत्र अत्र आचार्यः इति एव
प्रधानम्
अस्ति तत्र कर्तृरूपं किं भवति त्वम् अनुष्ठानानन्तरम् आचार्यं रणक्षेत्रम् आनयतु इति भवति. अतः आचार्यम् इति एकं कर्मपदं, रणक्षेत्रम् तत्र आनयतु इति अस्ति. किन्तु तत्र प्रधानमस्ति आचार्यं, तस्य तदेव कर्मपदम् इति स्वीकुर्मः. अतः कर्मणि प्रयोगे आचार्यः इति रूपं भवति. अतः त्वया अनुष्ठानानन्तरम् अथवा भवता अनुष्ठानानन्तरम् आचार्यम् आचार्यः
आचार्य
रणक्षेत्रम् आनीयताम् इति भवति. समीचीनं
महोदय. एकवारं पुनः भवान् उक्तवान् चत्वारः
धातवः सन्ति महोदय, किन्तु तत्र ते के इति न स्मरामि इति.
परन्तु किम् अस्ति
चत्वारः धातवः सन्ति, तेषां प्रधानकर्मपदमेव कर्मपदम् इति स्वीकुर्मः कर्मणि प्रयोगे. अन्येषां गौणकर्मपदमेव तत्र कर्मपदम् इति स्वीकुर्मः कर्मणि प्रयोगे. न महोदय, तत्र कर्मपदद्वयमस्ति खलु.
आम्,
हा, इदानीं कर्मणि प्रयोगसमये कर्मपदं द्वयमस्ति, किन्तु एकस्य एव प्रथमविभक्तिः भवति कर्मणि प्रयोगे. अत्र पश्यतु, तत्र कर्मपदद्वयमस्ति, आचार्यं रणक्षेत्रम् इति अस्ति कर्तृप्रयोगे, किन्तु एकस्य एव परिवर्तनं जातं खलु. केवलम् आचार्यः इति एव वयं कृतवन्तः, किन्तु रणक्षेत्रम् इति तत् नपुंसकलिङ्गपदम् अस्ति सत्यं, किन्तु रणक्षेत्रम् इति द्वितीयविभक्त्यन्तमेव तिष्ठति तत्. इदानीं तत्र इदानीम् एतद् वाक्यं स्वीकुर्मः महोदय, तत्र भवान् आचार्यं ग्रामम् आनयतु इति स्वीकुर्मः. भवान् आचार्यं ग्रामम् आनयतु. इदानीं कर्मणि प्रयोगे किं भवति, तत्र कर्मपदं द्वयम् अस्ति, आचार्यम् अस्ति इदानीं किं तत्र कर्मणि प्रयोगे रूपं कथं भवति, भवता आचार्यः ग्रामः आनयतु इति भवति वा आनीयताम् इति भवति वा? न, तादृशं वाक्यं नास्ति. कर्मपदं द्वयमस्ति, किन्तु प्रधानकर्मपदं यदस्ति तस्य एव प्रथमविभक्त्यन्तं भवति, अन्यस्य द्वितीयविभक्त्यन्तरूपमेव तिष्ठति. अतः भवता आचार्यः ग्रामम् आनीयताम् इति.
अस्तु, नी धातुः प्रथम चत्वारि
तत्र अत्र किमस्ति, चत्वारः धातवः तेषां कृते प्रधानकर्मपदस्य प्रथमविभक्त्यन्तं, तदेव कर्मपदम् इति स्वीकुर्मः, तस्य परिवर्तनं भवति प्रथमविभक्त्यन्तं, केवलं तस्य एव प्रधानस्य एव परिवर्तनं भवति. इदानीं तत्र षोडशः धातवः सन्ति द्विकर्मकधातवः. इदानीं तत्र चत्वारः ये सन्ति नी धातुः तादृशः, तेषां प्रधानकर्मपदस्य परिवर्तनं, अन्येषां कृते
दातवः
ये सन्ति तेषां कृते तु तत्र कर्मणि प्रयोगे गौणकर्मपदस्य एव केवलं तस्य एव परिवर्तनं प्रथमाविभक्तिरूपं स्वीकुर्मः.
द्वादश धातोः गौणप्रधानः
न तत्रापि गौणकर्मपदमस्ति प्रधानक्रिया, तत्र गौण अपि प्रधानकर्मपदं द्वयमस्ति, किन्तु तेषां कृते केवलं गौणकर्मपदस्य एव प्रथमाविभक्त्यन्तं कुर्मः.
प्रधानः नास्ति,
न, प्रधानकर्मपदम् अस्ति किन्तु तस्य द्वितीयविभक्त्यन्तम् एव रूपं तिष्ठति. इति.
अस्तु अस्तु. चत्वारि प्रधान
चत्वारः धातवः तेषां कृते प्रधानकर्मपदस्य परिवर्तनम्, अन्येषां कृते गौणकर्मपदस्य परिवर्तनम्. हा, तत्र ये तत्र विरलाः तत्र न्यूनाः सन्ति तेषां कृते प्रधान कर्मपदस्य परिवर्तनं, ये अधिकाः सन्ति तेषां कृते गौणकर्मपदस्य परिवर्तनम्. किन्तु तत्र तत्र किं किम् अस्ति इति तत्र इदानीं न स्मरामि, किन्तु तत्र एषः विषय नियमः तु एषः अस्ति. अतः नी धातुः अस्मिन् अन्तर्भूतः अतः तत्र अतः अस्मिन् पाठे तत्र आचार्यः इति एव प्रधानकर्मपदं, तस्यैव प्रथमाविभक्तिरूपं. तत्र यदि
कर्तरि चेत् प्रधान अपि च गौण किमपि रूपभेदः नास्ति, किन्तु प्रधान प्रथमम् आयाति गौण
तादृशं नास्ति. न तादृशं नास्ति. न प्रधान अपि गौण तयोः भेदः कः नाम, प्रधान इति तत्र कर्मपदं केवलं द्वितीयाविभक्तिरूपमेव भवितुम् अर्हति, गौण इत्युक्ते तत्र अन्या विभक्तिरूपं भवितुम् अर्हति तस्य.
कर्तरि वा?
कर्तरि मध्ये एव द्विकर्मकः धातुः अस्ति चेत् तत्र गौणकर्मपदं नाम यस्य कर्मपदस्य अन्या विभक्तिः भवितुम् अर्हति.
कर्मणि प्रयोगे तु क्लेशः अस्ति. चत्वारि धातोः प्रधानः प्रथमा आयाति, द्वादश मध्ये गौण प्रथमः आयाति
इति इति अस्ति महोदय.
अस्तु अस्तु.
तत्र तत्र अहम् एतत्तु तत्र हेग्डे महोदयस्य पुस्तके अस्ति इति जानामि, किन्तु तत्र किन्तु तत्र नी धातुः तस्मिन् अन्तर्भूतः इति जानामि महोदय.
एतत्तु बहु विशेषः अस्ति.
अस्तु, सत्यं. तत्र प्रायशः यदि अग्रे गत्वा तत्र यदि तत्र प्रयोगविस्तरः इति पुस्तकं पठामः जनार्दन हेग्डे महोदयस्य, तस्मिन् एतदेव तत्र किं शताधिकपुटानि सन्ति तस्मिन् पुस्तके, किन्तु सर्वं किं तत्र कर्तृप्रयोगे कर्मणि प्रयोगे भावे प्रयोगः एव मूलविषयः अस्ति. अतः तत् अग्रे गत्वा कुर्मः. अस्तु, इदानीम् अग्रे गच्छामः तर्हि. अतः तत्र आनयतु आचार्यं रणक्षेत्रम् आनयतु, अथवा आचार्यः रणक्षेत्रम् आनीयतां भवता. अस्तु अस्तु, तदनन्तरम् अस्तु इति अस्ति. इदानीं तत्र अग्रे तत्र रघुवीरनन्दस्वामी अग्रे करोति वा?
आं महोदय,
समयः अभवत्.
ओ, समयः अभवत्. सत्यं सत्यम्. अस्तु, तत्र किन्तु रघुवीरनन्दस्वामी तत्र केवलम् एकं वाक्यं स्वीकृत. अस्तु, न अस्तु अस्तु महोदय, अग्रिमं वर्गे एव कुर्मः. क्षम्यतां
महोदय. महोदय, तत्र एक किञ्चित् प्रश्नः जातः. अनुष्ठानानन्तरमपि च स्नानानुष्ठानादिकम् इति पदस्य इत्युक्ते तत्र अनुयोग
अनुष्ठानम् इति अस्ति.
अनुष्ठानं अनुष्ठानं
भिन्नम् अस्ति. न स्नानं भिन्नम् अस्ति, अनुष्ठानं भिन्नम् अस्ति. नाम स्नानानन्तरं तत्र प्रतिदिनं तत्र पूजा वा तत्र सन्ध्यावन्दन वा यत् नियमेन कुर्मः तत् अनुष्ठानम् इति वदामः.
अस्तु अपि च तत्र किन्तु तत्र स्नान योगः अनुष्ठान आदि
नाम तत्र अनेक तत्र आदि आदि इति अस्ति अतः समूहः स्नान अनुष्ठान आदि आदिक आदिकम् इति
अस्तु अवगतम्
अतः अनुष्ठानः इति अस्तु समीचीनं भगिनि रघुवृन्दस्वामी क्षम्यताम्
अहम् अचिन्त्यत् भवान् मां विस्मरति
सत्यं महोदय सत्यं हा किन्तु भवान् अद्य पठितवान् किन्तु तत्र विवरणं न कृतवान् अग्रिमे वर्गे भवता अपि तत्र गीताञ्जलि भगिन्या एव तत्र आरम्भः भवति अस्तु
नास्ति चिन्ता महोदय
शान्तिपाठं वदामि महोदय
हा भवान् करोतु सत्यं समीचीनम् अस्तु अस्तु
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमानाय पूर्णमेवावशिष्यते ॐ शान्तिः 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 हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ
धन्यवादः महोदय धन्यवादः